कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमाह्निकम् कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमाह्निकम् उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमलाकान्ता त्रैलोक्यं मङ्गलं कुरु मातः समस्तजगतां मधुकैटभारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्रीस्वामिनिःसृतजनप्रियदानशीले श्रीवेङ्कटेश दयिते तव सुप्रभातम् तव सुप्रभातमरविन्दलोचने भवतु प्रपन्नमुखचन्द्रमण्डले विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथ दयिते दयानिधे अत्र्यादिसप्तऋषयः समुपास्य सन्ध्याम् आकाशसिन्धुकमलानि मनोहराणि आदाय पादयुगमर्चयितुम् प्रपन्नाः शेषाद्रिशेखर विभो तव सुप्रभातम् पञ्चाननाब्जभव षण्मुखवासवाद्याः त्रैविक्रमादिचरितम् विबुधास्तुवन्ति भाषापतिः पठति वासरशुद्धिमारात् शेषाग्रिशेखर विभो तव सुप्रभातम् ईषत् प्रफुल्लसरसीरुघनारिकेलपूगद्रुमादिषु मनोहर पालिकानाम् आवातिमन्दमनिलः सह दिव्यगन्धैः शेषाद्रिशेखर विभो तव सुप्रभातम् उन्मील्य नेत्रयुगमुत्तम पञ्जरस्थाः पात्रावशिष्टकदळीफलपायसाली भुक्त्वा सलीलमथ केळिशुकाः पठन्ति शेषाद्रिशेखर विभो तव सुप्रभातम् तन्त्री प्रकर्षमधुरस्वनया विपञ्च गायत्यनन्तचरितम् तव नारदोऽपि भाषा समग्रमसकृत्करचाररम्यम् शेषाद्रिशेखर विभो तव सुप्रभातम् भृङ्गावळी च मकरन्दरसानुविद्धझङ्कारगीतनिनदैः सह सेवनाय निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखर विभो तव सुप्रभातम् योषागणेन वरदद्धि विमध्यमाने घोषालयेषु दधिमन्थन तीव्रघोषाः रोषात्कलिम् विदधते ककुभश्च कुम्भाः शेषाद्रिशेखर विभो तव सुप्रभातम् पद्मेश मित्रशतपत्रगताळिवर्गाः हर्तुम् श्रियम् कुवलयस्य निजाङ्गलक्ष्म्या भेरीनिनादमिव बिभ्रति तीव्रनादम् शेषाद्रिशेखर विभो तव सुप्रभातम् श्रीमन्नभीष्टवरदाखिलोकबन्धो श्री श्रीनिवास जगदेकदयैकसिन्धो श्रीदेवतागृहभुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपदे तव सुप्रभातम् श्रीस्वामि पुष्करिणिकाप्लव निर्मलाङ्गाः श्रेयोर्धिनोहर विरिञ्चि सनन्दनाद्याः द्वारे वसन्ति वरवेत्र हतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीशेषशैलगरुडाचल वेङ्कटाद्रिनारायणाद्रिवृषभाद्रिवृषाद्रिमुख्या आख्याम् त्वदीयवसतेरनिशम् वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम्। सेवा परा शिव सुरेश कृशानुधर्म रक्षोऽम्बुनाथ पवमान धनाधिनाथ बद्धाञ्जलि प्रविलसन्निज शीर्ष देशा श्रीवेङ्कटाचलपते तव सुप्रभातम्। धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराज स्वस्वाधिकारमहिमादिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्। सूर्येन्दुभौम बुधवाक्पति काव्यसौरिस्वर्भानुकेतु दिविशत्परिषत्प्रधाना त्वद्दासदास च रमावधिदासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम्। त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्ष निजान्तरङ्गाः कल्पागमाकलनयाकुलताम् लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्। त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीम् परमांशयन्तः मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्। श्रीभूमिनायक दयादिगुणामृताब्धे देवादिदेव जगदेक शरण्यमूर्ते श्रीमन्ननन्त गरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम्। श्रीपद्मनाभ पुरुषोत्तम वासुदेवा वैकुण्ठमाधव जनार्दन चक्रपाणे श्रीवत्सचिह्न शरणागत पारिजाता श्रीवेङ्कटाचलपते तव सुप्रभातम्। कन्दर्प दर्प हर सुन्दर दिव्यमूर्ते कान्ताकुचाम्बृहकुट्मलोल दृष्टे कल्याण निर्मल गुणाकर दिव्य कीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्। मीनाकृते कमठकोल नृसिंहवर्णिन् स्वामिन् परश्वथ तपोधन रामचन्द्र शेषांश रामय गुणन्दन कल्कि रूपा श्रीवेङ्कटाचलपते तव सुप्रभातम्। वेलालवङ्गघनसार सुगन्धितीर्थम् दिव्यम् वियत्सरिति हेमघटेषु पूर्णम् धृत्वाद्य वैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम्। भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निरदैः ककुभो विहङ्गाः श्रीवैष्णवाः सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव वेङ्कटसुप्रभातम्। ब्रह्मादयः सुरवराः समहर्षयस्ते सन्तः सनन्दनमुखास्त्वधयोगिवर्याः धामान्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम्। लक्ष्मीनिवासनिरवद्यगुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो वेदान्तवेद्यनिजवैभवभक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम्। इत्थम् वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनम् पठितुम् प्रवृत्ताः तेषाम् प्रभातसमये स्मृतिरङ्गभाजाम् प्रज्ञाम् परार्थसुलभाम् परमाम् प्रसूते इत्थम् वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनम् पठितुम् प्रवृत्ताः तेषाम् प्रभातसमये स्मृतिरङ्गभाजाम् प्रज्ञाम् परार्थसुलभाम् परमाम् प्रसूते कमलाकुचचूचुककुङ्कुमतो नियतारुणिता तुलनीलतनो कमलायतलोचनलोकपते विजयी भव वेङ्कटशैलपते कमलाकुचचूचुककुङ्कुमतो नियतारुणिता तुलनीलतनो कमलायतलोचनलोकपते विजयी भव वेङ्कटशैलपते स चतुर्मुख षण्मुख पञ्चमुख प्रमुखाखिल दैवत मौळिमणे शरणागत वत्सल सारनिधे परिपालय मां वृषशैलपते अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः भरितम् त्वरितम् वृषशैलपते परया कृपया परिपाहि हरे अधिवेङ्कटशैलमुदारमतेर्जनताभिमदाधिकदानरतात् परदेवतया गदितान्निगमैः कमलादयितान्न परम् कलये कलवेणुरवावशगोपवधूशतकोटिवृता स्मर कोटिसमात् प्रतिवल्लविकाभिमतात् सुखदात् वसुदेवसुतान्न परम् कलये अभिरामगुणाकरदाशरथे जगदेकधनुर्धरधीरमते रघुनायक राम रमेश विभो वरदो भव देव दया जलधे अवनीतनया कमनीयकरम् रजनीकर चारुमुखाम्बुरुहम् रजनीकर राज तमोमिहिरम् महनीयमहम् रघुराममये सुमुखम् सुहृदम् सुलभम् सुखदम् स्वनुजम् च सुखाय ममोघशरम् अपहाय रघूद्वहमन्यमहम् न कथञ्चन कञ्चन जातु भजे विना वेङ्कटेशम् ननाथो ननाथः सदा वेङ्कटेशम् स्मरामि स्मरामि हरे वेङ्कटेश प्रसीद प्रसीद प्रियम् वेङ्कटेश प्रयच्छ प्रयच्छ अहम् दूरतस्ते पदाम्भोजयुग्म प्रणामेच्छयागत्य सेवाम् करोमि सकृत्सेवया नित्यसेवाफलम् त्वम् प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश अज्ञानिना मया दोषानशेषान् विहितान् हरे क्षमस्वत्वम् क्षमस्वत्वम् शेषशैलशिखामणे अज्ञानिना मया दोषानशेषान् विहितान् हरे क्षमस्वत्वम् क्षमस्वत्वम् शेषशैलशिखामणे ईशानाम् जगतोऽस्य वेङ्कटपतेर्विष्णोः पराम् प्रेयसी तद्वक्षस्थलनित्यवासरसिकाम् रक्षान्ति संवर्धिनीम् पद्मालङ्कृतपाणिपल्लवयुगाम् पद्मासनस्थाम् श्रियम् वात्सल्यादिगुणोज्ज्वलाम् भगवतीम् वन्दे जगन्मातरम् ईशानाम् जगतोऽस्य वेङ्कटपतेर्विष्णोः पराम् प्रेयसी तद्वक्षस्थलनित्यवासरसिकाम् तक्षान्ति संवर्धिनीम् पद्मालङ्कृतपाणिपल्लवयुगाम् पद्मासनस्थाम् श्रियम् वात्सल्यादिगुणोज्ज्वलाम् भगवतीम् वन्दे जगन्मातरम्। श्रीमन्कृपाजलनिवेकृतसर्वलोका सर्वज्ञशक्तनतवत्सलसर्वशेषिम् स्वामिन् सुशीलसुलभाश्रितपारिजात श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। आलोपुरार्पितसुजातसुगन्धिपुष्पसौरभ्यसौरभकरौ समसन्निवेशौ सौम्यौ सदानुभवनेऽपि नवानुभाव्यौ श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। सद्यो विकासि समुदित्वरसान्द्ररागसौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् सम्यक्षुसाहसपदेषु विलेखयन्तौ श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। रेखामयध्वजसुधाकलशातपत्रवज्राङ्गुशाम्बुरुहकल्पकशङ्खचक्रैः भव्यैरलङ्कृततलौ परतत्त्वचिह्नैः श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। ताम्रोदरद्युतिपराजितपद्मरागौ बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ उद्यन्नखांशुभिरुदस्तशशाङ्खभासौ श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। सप्रेमभीतिकमलाकरपल्लवाभ्याम् संवाहनेऽपि सपदिक्लममादधानौ कान्तावाङ्मनसगोचरसौ कुमार्यौ श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। लक्ष्मीमहीतदनुरूपनिजानुभावनीलादिदिव्यमहिषीकरपल्लवानाम् आरुण्यसङ्क्रमणतः किल सान्द्ररागौ श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। नित्यानमद्विधि शिवादिकिरीटकोटिप्रत्युक्तदीर्तनवरत्नमःप्ररोहैः नीराजनाविधिमुदारमुपादधानौ श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। विष्णोः पदे परम इत्युदितप्रशंसौ यौ मध्व उत्स इति भोग्यतयाप्युपात्तौ भूयस्तथेति तव पाणितलप्रदिष्टौ श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। पार्थाय तत्सदृशसारथिना त्वयैव यौ दर्शितौ स्वचरणौ शरणम् व्रजेति भूयोऽपि मह्यमिहतौ करदर्शितौ ते श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। मन्मूर्धिकालियफणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् चित्येऽप्यनन्यमनसाम् समवाहितौ ते श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। अम्लानहृष्यदवनीतलकीर्णपुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ आनन्दिताखिलमनोनयनौ तवैतौ श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। प्रायः प्रपन्नजनता प्रथमावगाह्यौ मातुस्तनाविव शिरोरमृतायमानौ प्राप्तौ परस्परतुलामतुलान्तरौ ते श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। सत्त्वोत्तरैः सततसेव्यपदाम्बुजेन संसारतारकदयाद्रदृगञ्छलेन सौम्योपयन्तृमुनिनाममदर्शितौ ते श्रीवेङ्कटेशचरणौ शरणम् प्रपद्ये। श्रीसश्रिया घटिकया त्वदुपायभावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या नित्याश्रिताय निरवद्य गुणाय तुभ्यम् स्याम् किम् करो वृषगिरीश न जातु मह्यम् श्रीश श्रिया घटिकया त्वदुपाय भावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या नित्याश्रिताय निरवद्य गुणाय तुभ्यम् स्याम् किम् करो वृषगिरीश न जातु मह्यम्।